श्रीमद् भागवत महापुराणम् दशमस्कन्धः अथ पञ्चत्रिंशोऽध्यायः श्रीशुक उवाच गोप्यकृष्णिवनं याते तमनुद्रुतचेतसः कृष्णलीला प्रगायन्त्यो निन्युर्दुःखेन वासरान् गोप्य ऊचुः वामबाहुकृत वामकपोलो वल्गितभ्रुरधरार्पितवेणुम् कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति अत्र मुकुन्दः व्योमयानवनिता सह सिद्धैर्विस्मितास्तदुपधार्य सलज्जाः काममार्गणसमर्पितचित्ता कष्मलं ययुरपस्मृतनीव्यः हन्तचित्रमबलाशृणुतेदं हारहास उरसि स्थिरविद्युत् नन्दसूनुरयमार्तजनाना नर्मदो यर्हि कूजितवेणुः वृन्दशोव्रजवृषा मृगगावो वेणुवाद्यरुतचेतसारात् दन्तदष्टकवलाधृतकर्णा निद्रिता लिखितचित्रमिवासन् बर्हिणस्तवकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्बः कर्हिचित्सवलालिसगोपैर्गासमह्वयति अत्र मुकुन्दः तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजोनिलनीतम् स्पृहयतीर्वयमिवा बहुपुण्या प्रेमवेपितभुजास्ति मितापः अनुचरैः समनुवर्णितवीर्य आदिपुरुषैवाचलभूतिः वनचरो गिरितटेषु चरन्तीर्वेणुनाह्वयति गासयदा हि वनलतास्तरवात्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः प्रणतभारविटपामधुधारा प्रेमरुष्टतनवः ससृजु स्म दर्शनीयतिलको वनमाला दिव्यगन्धतुलसीमधुमत्तैः अलिकुलैरलघुगीतमभीष्टमाद्रियन्यर्हि सन्धितवेणुः सरसि सारसहंसविहङ्गाश्चारुगीतरुतचेतस इत्य हरिमुपासतते यत् चेत्ता हन्तमीलितदृशो धृतमौनाः सह बलस्रगवतं सविलासः सानुषुक्षितिवृतो व्रजदेव्यः हर्षयन्यर्हि वेणुरवीण जातहर्ष उपरम्भति विश्वम् महदतिक्रमः विक्रमण शंकित चेता मंद मंद मनुगर्जति मेघः सुहृदमभ्यवर्षत्सु मनोभिश्छायया च विदधत् प्रतपत्रम् विविध गोपचरणेषु विदग्धो वेणुवाद्य उरुधानिज शिक्षाः तव सुतः सति यदाधर बिम्बे दत्त वेणुरनयत् स्वर जातिः सवनशस्तदुपधार्य सुरेशा शक्र शर्व परमेष्टि पुरोगाः कवय आनत कंधर चित्ता कश्मलं ययुरनिश्चित तत्वाः निज पदाब्जदलैर्ध्वज वज्र नीरजांकुश विचित्र ललामैः व्रज भुवः शमयन् कुरतोदं वश्मधुर्य गतिरीडित वेणुः व्रजति तेन वयं सविलास वीक्षणार्पितमनोभव वेगाः कुजगतिङ्गमितान विदाम कश्मलेन कबरं वसनं वा मणिधर क्वचिदागणयङ्गा मालयादयित गन्धतुलस्याः प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र क्वणित वेणुरव वञ्चित चित्ता कृष्ण मन्वसत कृष्ण गृहिण्यः गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्त गृहाशाः कुन्द दाम कृत कौतुक वेषो गोप गोधन वृतो यमुनाया नन्द सूनुरन घेतव वत्सो नर्मद प्रणयिनां विजहार मन्दवायुरुपवात्यनुकूलं मानयन्मलयजस्पर्शेन वन्दिनस्तमुपदेवगणाये वाद्यगीतबलिभिः परिववृः वत्सलो व्रजगवां यजगध्रो वन्द्यमानचरणपथि वृद्धैः कृत्स्नगोधनमुपोय दिनान्ते गीतवेणुरनुगीडितकीर्तिः उत्सवं श्रमरुचापि दृशीनामुन्नयन् कुररजश्चुरितस्र दित्सयैति सुहृदाशिष एष देवकी जठरभूरुडुराजः मदविगूर्णित लोचन ईषन्मानदस्वसुहृदां वनमाली बदर पाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डलक्ष्म्या यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवान् दिनतापम् श्रीशुक उवाच एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायति। रेमि रेहस्सु तच्चित्तास्तन्मनस्कामहोदयाः। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां गोपिकायुगलगीतन्नाम पञ्चत्रिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु।